ॐ नमो भगवते वासुदेवाय। अथ त्रिंशोऽध्यायः। कपिल उवाच, तस्यै तस्य जनो नूनं नायं वेदोरुविक्रमं काल्यमानोऽपि बलिनो वायोरिव घनावलिः। यं यमर्थमुपादत्ते दुःखेन सुखहेतवे तं तं धुनोति भगवान् पुमान् छोचति यत्कृते। यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः, ध्रुवाणि मन्यते मोहाद्गृहक्षेत्रवसूनि च। जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत् तस्यां तस्यां स लभते निर्वृतिं न विरज्यते। नरकस्थोऽपि देहं वै न पुमांश्चक्तुमिच्छति। नारक्यां निर्वृतौ सत्यां देवमाया विमोहितः, आत्मजाया सुतागार पशुद्रविणबन्धुषु निरूढमूलहृदय आत्मानं बहु मन्यते। सन्दह्यमान सर्वाङ्ग एषामुद्वहनाधिना करोत्यविरतं मूढो दुरितानि दुराशयः। आक्षिप्तात्मेन्द्रियस्त्रीणामसतीनां च मायया रहोरचितया लापै शिशूनां कलभाषिणां गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्त्रितः कुर्वन् दुःखप्रतीकारं सुखवन्मन्यते गृही। अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान् पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयं। वार्तायां लुप्यमानायामारब्धायां पुनः पुनः लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम्। कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः, श्रियाविहीनः कृपणो ध्यायञ्छसिति मूढधीः। एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा नाद्रियन्ते यथा पूर्वं कीनाशा इव गोचरम्। तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयंभृतैः, जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे। आस्तेवमत्योपन्यस्तं गृहपालैवाहरन् आमया व्यप्रदीप्ताग्निरल्पाहारोल्पचेष्टितः। वायुनोत्क्रमतोत्तारः कपसं रुद्धनाडिकः, कासश्वासकृता यास कण्ठे घुरघुरायते। शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः, वाच्यमानोऽपि न ब्रूते कालपाशवसङ्गतः। एवं कुटुम्बभरणे व्यापृतात्मा जितेन्द्रियः, म्रियते रुदतां स्वानां रुवेदनयास्तधीः। यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ, स दृष्ट्वा त्रस्तहृदयः सकृन्मूत्रं विमुञ्चति। यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा। तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवे पथुः, पथिष्वभिर्भक्ष्यमाण आर्तोघं स्वमनुस्मरन्। क्षुत्रिट्परितोर्कदवानलानिलैः सन्तप्यमानः पथितप्तवालुके, कृच्छ्रेण पृष्ठे कषया च ताडितश्चलत्यशक्तोऽपि निराश्रमोदके। तत्र तत्र पतञ्छ्रान्तो मूर्च्छितः पुनरुत्थितः, पथा पापीयसा नीतस्तमसा यमसादनम्। योजनानां सहस्राणि नवतिं नवचाध्वनः, त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः। आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः, आत्ममान्साधनं क्वापि स्वकृत्तं परतोऽपि वा। जीवतश्चान्त्राभ्युद्धारः स्वगृध्रैर्यमसाधने, सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम्। कृन्तनं चावयवसो गजादिभ्योऽभिदापनं, पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः। यास्तामिश्रान्धतामिश्रा रौरवाद्याश्च यातनाः, भुङ्क्ते नरो वा नारी वा मिथसङ्गेन निर्मिताः। अत्रैव नरकः स्वर्गः इति मातः प्रचक्षते। या यातना वै नारक्यस्ता इहाप्युपलक्षिताः। एवं कुटुम्बं बिभ्राण उदरं भर एव वा विसृज्येहो भयं प्रेत्य भुङ्क्ते तत्फलमीदृशम्। एक प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरं, कुशलेतरपाथेयो भूतद्रोहेण यद्भृतं। दैवेनासादितं तस्य शमलं निरये पुमान्, भुङ्क्ते कुटुम्बपोषस्य हृतवित्तैवातुरः। केवलेन यधर्मेण कुटुम्बभरणोत्सुकः, याति जीवोऽन्धतामिश्रं चरमं तमसः पदम्। अधस्तान्नरलोकस्य यावतीर्यातनादयः क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने कर्मविपाको नाम त्रिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।